सौन्दर्यलहरि श्लोक 17 सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याध्याभिः त्वां सहजननी सञ्चिन्तयति यः सकर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवी वदनकमला मोदमधुरैः श्लोक 18 तनुच्छायाभिस्ते तरुणतरणि श्रीतरणिभिः दिवं सर्वाम् उर्वीम् अरुणिमणिमग्नाम् स्मरति यः भवन्त्यस्यत्रस्यत् वनहरिणशालीननयनाः सहोर्वश्यावश्याः कति कतिन गीर्वाणगणिकाः श्लोक 19 मुखं बिन्दुं कृत्वा कुचयुगम् अधस्तस्य तदधः हरार्धं ध्यायेद्यः हरमहिषिते मन्मथकलां ससद्यः संक्षोभं नयति वनिता इत्यति लघुः त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां श्लोक 20 किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं कृति त्वामादत्ते हिमकर शिलामूर्तिमिव यः ससर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारशिरया श्लोक 21 तटिल्लेखा तन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णाम् अप्युपरि कमलानां तव कलां महापद्माटव्यां मृदितमलमायेन मनसः महान्तः पश्यन्तः तदति परमानन्दलहरीं श्लोक 22 भवानि त्वं दासे मयि वितरदृष्टिं सकरुणाः इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्द ब्रह्मेन्द्र स्फुटमकुट नीराजितपदाम्।